अर्जुन उवाच
अर्जुन उवाच
एवं सततयुक्ताये भक्तास्त्वां पर्युपासते ये चाप्यक्षरमव्यक्तम् तेषां के योगवित्तमाः
तेषां के योगवित्तमाः